एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्रे रत्नावली शर्मा। राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः पाचनेन्धनस्य सहजापूर्तये विक्रणाय वितरणाय च आवश्यकीं व्यवस्थां विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवान् अस्ति। राष्ट्रियसभायाः ह्यस्तनोपवेशे अध्यक्षः दाहालः आपणेषु पाचनेन्धनस्य आपूर्तौ विक्रयणे वितरणे च दृष्टानां समस्यानाम् अन्येषां वस्तूनां मूल्यवृद्धिश्च विषयेष् सदस्यः धारणाम् अभिव्यज्य सहजरूपेण पाचनेन्धनस्योपलब्धये व्यवस्थां विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः इति अज्ञापयत्। सभायाः उपवेशे सांसदः पाचनेन्धनस्य सहजापूर्तये सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। सांसदः देशे सामाजिकं सद्भावं स्थापयितुं संघीयतायाः सुदृढीकरणं विधातुं च सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः ह्यस्तनोपवेशेन कृषि वन पर्यावरण मन्त्रिणा गीता चौधरी इत्यनया संक्रामक पशुरोग नियन्त्रण सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। एवमेव संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा खड्गराज पौडेलेन आन्तर्वायुसेवायाः दायित्व सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकं प्रस्तुतमासीत्। राष्ट्रियसभायाः सचिवः तुलबहादुर कणेलः एकचत्वारिंशदुत्तर द्विसहस्रतम विक्रमवर्षीयस्य नेपाल विशेष सेवाधिनियमस्य तात्कालिकीं व्यवस्थां पुनरुज्जीवयितुं निर्मितस्य एतद् विक्रमवर्षीयस्य विधेयकस्य विषये प्रतिनिधिसभातः प्राप्तं सन्देशं सभासमक्षं प्रास्तौत्। राष्ट्रियसभायाः अपरोपवेशः अद्य दिवासपादैकवादने वसति। नेपाले पश्चात्तन समये वर्धनस्य क्रमे स्थितं सहायक प्रजनन प्रविधिं नियन्तुं विधिर्निर्माणस्य याचनया राष्ट्रियसभायां संकल्प प्रस्ताव पञ्जीकारितो वर्तते। राष्ट्रियसभायां ह्य पञ्जीकारिते प्रस्तावे चिकित्सा विज्ञानस्य विकासेन सहैव निस्सन्तान दम्पत्ये प्रविधिरयं वरदानं सम्भूतं सदपि विधेये रिक्ततायाः कारणेन अस्य चरम दुरुपयोगः जायमानोऽस्तीति उल्लिखितं वर्तते। प्रस्तावे नेपाले शुक्रकीट दाने संकलने भण्डारणे प्रयोगे आयाते निर्याते च पृथक स्पष्ट वैधानिक व्यवस्था नास्ति। अस्मात् प्रविदितः लब्धजन्मनां बालबालिकानाम् अधिकारं गोपनीयतां स्वास्थ्य सुरक्षां च सुनिश्चेतुं वैधानिक व्यवस्था अपरिहार्यास्तीति उल्लिखितं वर्तते। सर्वकारेण सर्वकारीय कार्यालयेभ्य प्रदीयमानायै सार्वजनिक सेवायै प्रयुज्यमानानां निवेदनानां स्वरूपे एकरूपतायाः आनयनस्य उद्देश्येन मार्गदर्शनं प्रकाशितं वर्तते। प्रधानमन्त्री मन्त्री परिषदः कार्यालयेन सर्वकारीय कार्यालयेष् प्रयुज्यमानानां निवेदनानां स्वरूपे संरचनायां क्रियान्वयने च एतद् विक्रमवर्षीयं मार्गदर्शनं प्रकाश्य सर्वेष् कार्यालयेष् अस्य क्रियान्वयनाय निर्देशनं प्रदत्तम् वर्तते इति प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य प्रवक्ता हेमराज अर्यालः असूचयत्। सर्वकारेण आगामिनि समये प्रस्तुष्यमाणानां विधेयकानां प्रारूपस्य निर्माणे विषये विज्ञः प्रयोक्ष्यन्ते। विज्ञान प्रविधि नव प्रवर्तन मन्त्रिणा महावीर पुन इत्यनेन संसदः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः स्तनोपवेशे सम्बद्धेष् विषयेष् विज्ञजनैर्प्रारूपं निर्माय विमर्शनस्य प्रस्तुते सारल्यं भवतीति हेतुः तदनुसारेणैव कार्यं विधीयमानमस्तीति उक्तं वर्तते। उद्योग वाणिज्यापूर्ति मन्त्री गौरी कुमारी पाचनेन्धनस्य आपूर्तेः अवस्थां वितरणं परिवहनं च पारदर्शिनी प्रभावकारिणी च विधातुं ऑनलाइन प्रणाल्या कार्यं विधीयमानमस्तीति सूचितवती वर्तते। उद्योग वाणिज्य श्रमोपभोक्तृ हित संरक्षण समित्या ह्य काष्ठमण्डपे आयोजिते अत्यावश्यक दैनिक खाद्य वस्तूनां सहजापूर्तेः व्यवस्थापनस्य विषये सम्बद्ध निकायै सह विमर्शन कार्यक्रमे मन्त्री गौरी कुमारी सिंहप्रसादे अद्य श्रावणस्य अष्टाविंशात् दिवसात् खाद्यान्न केन्द्राणां माध्यमेन खाद्यान्नानां विक्रय वितरणं विधीयमाने स्तः इति असूचयत्। प्रधान न्यायाधीशः डॉक्टर मनोज कुमार शर्मा न्यायिक मर्यादां व्यावसायिकीं निष्ठांश विचार्य कार्यस्य सम्पादनाय बलं ददाति। नेपाल विधि व्यवसायी परिषदः त्रयस्त्रिंशत् स्थापना दिवसस्य अवसरे पूर्वे दिहु काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधान न्यायाधीशः डॉक्टर शर्मा विधि व्यवसायीभि नैतिक मूल्य मान्यतां प्रति प्रतिबद्धा सन्तः आत्ममूल्यांकनं समीक्षाञ्च कृत्वा पारदर्शितायाः उत्तरदायितायाश्च सफलम् अभ्यासं प्रयोक्तुम् अनुरुद्धवान् वर्तते। रोल्पा जनपदस्य थवांग ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य उवावर्तिनी कोटलबारा ग्रामे भूस्खलनेन गृहे पूरिते सति द्वौ जनौ मृतौ स्तः, द्वौ जनौ आहतौ च वर्तेथे। रोल्पा जनपद प्रहरी कार्यालयस्य अनुसारेण बुधवासरस्य रात्रौ आसन्न नववादने अविरल वृष्ट्या सहैव दूरापन्नेन भूस्खलनेन स्थानीयस्य कमलबहादुर पुन मगर इत्यस्य गृहेण सहितानि षड् गृहगोष्ठानि पूरितानि सन्ति। भूस्खलने निपत्य थवांग ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य अष्टादश वर्षीया शान्तिपुन मगरः, षष्ठी वर्षीयः कमलबहादुरपुन मगरस्य मृतौ इति प्रहरिणा ज्ञापितं वर्तते। छिन्छो जाजरकोट मार्गखण्डान्तर्गते सल्यान जनपदस्य वनगाड कुपिण्डे नगरपालिकायाः प्रथम ओडा क्षेत्रस्य बांगीरह समीपे भेरी नद्याम जीपयानस्य दुर्घटनायां द्वौ जनौ विलुप्तौ स्तः। बालुआ संग्रही स्थानात् सल्ली बजार स्थानं प्रति प्रस्थीयमानं जीपयानं अनियन्त्रितं सद् मार्गात् आसन्न विंशति मीटर मितं अधः पतितम् आसीत्। घटनायां द्वौ जनौ आहतौ स्तः इति प्रहरिणा ज्ञापितमस्ति। विलुप्तयोः जनयोः जीपयान चालकः दाङ जनपदस्य त्रयोविंशति वर्षीयः हेमराज विशी, सल्यान जनपदस्य सिद्धकुमाख ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य त्रयोविंशति वर्षीयः भीमबहादुर राणा च स्तः इति प्रहरिणा ज्ञापितं वर्तते। निर्वाचनायोगेन विदेशेषु स्थितानां नेपालीनां मताधिकारं सुनिश्चेतुं विधेः सूचना प्रविधेश्च क्षेत्रेषु विधातव्येषु सुधारस्य विषयेषु अध्ययनं विधाय प्रतिवेदनं प्रस्तोतुं समितिः संघटिता अस्ति। आयोगस्य ह्य उपविष्टेन उपवेशेन विदेशेषु स्थितानां नेपाली नागरिकाणां मताधिकारं सुनिश्चेतुम् आवश्यक्यायाः विधेर्व्यवस्थायाः विषये अध्ययनं विधातुं निर्वाचनायोगस्य आयुक्तस्य गुरूप्रसाद वाग्लेभिदस्य संयोजकत्वे समितिः संघटिता अस्ति। एवमेव सूचना प्रविधेः प्रयोगेण निर्वाचन प्रक्रियाम् अतिरिक्तं समयानुकूलां सुरक्षितां पारदर्शिनीं प्रभावकारिणीं समावेशिनीं विश्वसनीयां च विधातुं निर्वाचनायुक्तस्य डॉ राजीव सुब्बा इत्यस्य संयोजकत्वे समितिः संघटिता अस्तीति आयोगस्य प्रवक्त्रा नारायण प्रसाद भट्टराय इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। राष्ट्रिय सावधानता केन्द्रेण गतार्थिक वर्षे सम्पादितानां कार्याणां विषये समाविष्टं गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रधानमन्त्रिणः बालेन्द्र शाहस्य समक्षं प्रस्तुतमस्ति। गतार्थिक वर्षे केन्द्रे प्राप्तेषु षष्ट्युत्तर पञ्चशताधिक द्विसहस्रे याचिका निवेदनेषु चतुःपञ्चाशदुत्तराष्टशताधिकै सहस्र संख्यातानि याचिका निवेदनानि निर्णीतानि सन्तीति ज्ञापितं वर्तते। कोशी प्रदेश सर्वकारे नेपाली कांग्रेस दलस्य पक्षतः प्रतिनिधित्वं कुर्वद्भि चतुर्भि मन्त्रिभि एकेन राज्यमन्त्रिणा च पदात्यागपत्रं दत्तमस्ति। कोशी प्रदेश सर्वकारे नेपाली कांग्रेस दलस्य पक्षतः भौतिक पूर्वाधार विकास मन्त्रिणः प्रदीप कुमार सुनवार इत्यस्य नेतृत्वे सहभागिभि मन्त्रिभि मुख्यमन्त्रिणः हिक्मत कुमार कार्किणः समक्षं सामूहिक रूपेण त्यागपत्रं दत्तमस्ति। इति समाचारः।